अनिरुद्धा प्रतीरर्थः प्रद्युमिनो अमित विक्रमः कालनेमी निहावीरः सौरे सूरः जनेश्वरः त्रिलोकात्मा त्रिलोकेशः केशवः केशिया हरिः कामदेवः कामपालः कामी कान्तः कृतागमः अनिर्देश्योर्वपुर्विष्णु वीरोऽनन्तो धनञ्जयः ब्रह्मण्यो ब्रह्मकृद्ब्रह्मा ब्रह्मा ब्रह्मो विवर्धनः ब्रह्मविद् ब्राह्मणोर्ब्रह्मी ब्रह्मज्ञो ब्राह्मणः प्रियः महाकरमो महाकर्मा महातेजा मुहोरगः महाकर्त्रो महाजज्वा महाजज्ञो महाहविः स्तव्यः स्तव्यो प्रियः स्तोत्रम् स्तुतिः स्तोतारणप्रियः पूर्णः पूरायता पुण्यः पूर्णं कीर्तिरनामयः मनोजावः तीर्थकारो वसुरेता वसुप्रदः वसुप्रादो वासुदेव वसुर्वासुर्मनाहविः सदगतिः सत्कृती सत्ता सदभूतिः सत्परायणः सूरसेनो जदुश्रेष्ठः सर्निवासः सृजामुनः भूतावासो वासुदेवः सर्वासु निलयो नलः दर्पः दर्पदो दृप्तो दुर्धरार्था पराजितः विश्वमूर्ति महामूर्ति दीप्तमूर्तिरमूर्तिमान् अनेकमूर्तिरव्यगतः शतमूर्तिः शताननः एकानैकः सवः कङ्की जत्पदं मनमत्तमम् लोकार्बन्धो लोकनाथ माधवो भगतवश्चलः सुवर्णं वर्णहेवाङ्गो वराङ्गश्चन्दनाङ्गदि वीरहाविषमः शून्य घृताशीरः चलश्चलः अमानी मानदो मान्य लोकस्वामी त्रिलोकधृक् सुमेधा मेधयो धन्यः सत्यमेधाधराधरः तेजब्रूषदुतीधरः सर्वशस्त्रं भृताम्बरः प्रग्रौहो निग्रहो वैग्रो नैकशृङ्गः गदाग्रजः चतुर्मूर्ति चतुर्बाहो चतुर्व्यूहश्चतुर्गतिः चतुरात्माश्चतुर्भावश्चतुर्वेदेकवेदकवात् समावरतो निवृतात्मा दुर्जयो दुरतिक्रमः दुर्लभ दुर्गमो दुर्ग दुरावासो दुरारिहा शुभाङ्गो लोकसारङ्गः सन्तुतः सन्तुवर्धनः इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः उद्भावः सुन्दरः सुन्दरत्रनाभः सुलोचनः अर्को वाजः सनः शृङ्गी जयन्ताः सर्ववीजयी सुवर्णं बिन्दुरक्षेभ्यः सर्ववागीश्वरेश्वरः महाहरदो महागरतो महाभूतो महानिधिः कुमुदः कुन्दरः कुन्दः पर्यनः पावनो निलः अमृता समृता वपुः सर्वज्ञः सर्वतो मुखः सुल्लाभ सुब्रतः सिद्धः शत्रुजित् शत्रुतापनः नग्रोधो दम्बुरास्वस्थः शाणुरन्द्रो निषूदनः सहस्रार्चिः सप्तजीवः सप्तेधाः सप्तवाहनः अमृतीरनघोचिन्त्य भयकृद्भयनाशनः अणुम्रूहात्कुशास्त्रूळ गुणाभो निर्गुणामहान् अधृतः स्वधृता श्वासः प्रागवंशो वंशवर्धनः भारकृत्वधितो योगी योगी साह सर्वकामदः आश्रमः श्रवणक्षामः सुपर्णं वायुवाहनः धनुर्धारा धनुर्वेद दण्डो दामयतादमः अपराजितः सर्वसः नियन्ता नियमो यमः सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मः परायणः अभिप्रायः प्रियोः प्रियकृत्प्रतिवर्धनः विहाय सद्गतिर्योतिः सुरचिहुद्विभो विभुः रविर्वीरोचनः सूर्यः सवितारविलोचनः अनन्ताहुतभोक्ता सुखदानैकजोग्रजः अनिर्विर्णः सदामरषि लोकाधिष्ठानमद्भुतः सनात्सनातनं तमः कपीलाः कपिरव्ययः स्वस्तिदः स्वस्ति 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 भुक् स्वस्ति दक्षिणः अरौद्रौ कुण्डली चक्री विक्रम्युञ्जितशासनः सद्दातीगः सद्दसाः शिशिराः सरवरीकरः अक्रूरः पेशलौ दक्षो दक्षिणाः क्षमणाम्बरः विदत्तामम्बीतभय्याः पुण्यः श्रवणकीर्तनः उत्तारणं दुष्कत्रीः पुण्यो दुःस्वप्रणाशनः वीरः रक्षणः सन्तो जीवनः पर्यवस्थितः अनन्तारूपनन्तस्त्रीर्जीतमन्युः भयापहः चतुरास्रो गभीरात्मा विदिशो व्याधिशो दिशः अनादिभूर्भवो लक्ष्मी सुवीरो रुचिराङ्गदः जनो नो जनम जनमादि भीमो भीमो पराक्रमः आधारो निलयो धाता पुष्पहासः प्रजागरः ऊर्ध्वगः सत्प्रथाचारः प्राणदः प्रणवः प्रणः प्रमाणं प्राणनिलयः प्राणभृत् प्राणजीवनः तत्त्वं तत्त्वं विदेकात्मा जनमः मृत्योजरातिगः भूर्भुवस्तरस्तारः सविता प्रपितामहः जज्ञो जज्ञो प्रतिजज्वा जज्ञाज्ञो जज्ञवाहनः जज्ञभृज्जज्ञकृज्जज्ञी जज्ञभुज्जज्ञसाधनः जज्ञातकृतजज्ञगूह्य मरणमरणादेव च आत्मयोनिः स्वयं जात वैखानः सामगायनः देवकीनन्दनः स्रष्टा हितीसाः पापनाशनः शङ्खभृग्नन्दकीचक्री सारङ्गं धन्वा गदाधरः रथाङ्गपाणिरक्षेभ्यः सर्वप्राहारणायुधः सर्वप्राहारणायुधः ॐ नमः इति जायीदं कीर्तनयस्य केशवस्यो महात्मनः नामनां सहस्रनित्यानां शेषेणं परिकीर्तये कृष्णाय वासुदेवाय देवकीनन्दनाय च नन्दगोपः कुमारायो गोविन्दायो नमो नमः।